ஹலோ,
அதாவது
டெனிஸ் இல்ல
விஜய் ஒரு மிஸ்க்கு சாராங்கண்ணா.
உதவி மிஸ்க்கு நான் டபுள் உள்ள நம்பர் வட ஃபிலிம்ஸ் தோணும்
அசல் கொஞ்சம் யோன ரெடு ஓம் நான் அடம் நர்ன அசடமன் என்று ஓன நர்ரஜோ டானா ஃபல்லிக்கே
ரஷி சலாமின் நம்பர் சமுத் சுலாக்சியோன் நோ சலாவிட்
ஏ
சலாமின் மாஸ்டர் நம்பர் சமுத் சுலாக்சியோன் நோ சலாவிட்
ያው አዳምጣለሁ ዞሮ ያው ብዙም ያው ትምህርት እየሰራ ያለ ያው አረጃውን የኔ ስልክ ቁጥር ያው ሲሉ ያስኩትና አዛ ሞክር ነበር። በዚህ ደግሞ አይነሳም ስልኩ
እኮ ስለምን ነበር መረጃ የፈለጉት ነው ያልኩት።
መረጃማ ወይስ ትምህርት አለ ወይስ የለውም ለማለት ፈልጌ ነው። ይህን ልጠቀም ፈልጌ ማለት ነው። ይህን አሁን ያስኩት ስልክ ቁጥር
ትምህርት
አዎ ወደ ትምህርት ፈልጌው ዞሮ ወደ ምንድን ነው የሚጠቅም ምናምን ብዬ ነው ወይ ስራ ምንድን ነው ብዬ ነው የደወልኩት። በዚህ
ማለት ስለ አክሲዮን ከሆነ የሰሙት አክሲዮን እየሸጥን ነው አክሲዮን እየሸጥን ነው አሁን ላይ
ብዙም በጭንቃቄ ማላረኩን ትምህርት ስለሌለ የአዋሳደር ግበሬ ስለሆንኩኝ ግበሬ ስለሆንኩኝ ትምህርት ስለሌለ ብዙም አልያዝኩትም። ብቻ ግን ስልኩን ቁጥር ይዤው ነብና ምናልባት ብታስረዲ ምናምን ብዬ ነው የደወልኩኝ
እኮ። እሺ፣ አክሲዮን እየሸጥን ነው ድርጅቱ። አክሲዮን የሚሸጥ ድርጅት ነው
አክሲዮን?
አዎ፣ አክሲዮንም እና ቤትም እየሸጠ ያለ ድርጅት ነው። ሰርቶ የሚያስረክብ ድርጅት ነው።
የት ነው?
አዲስ አበባ። የት አካባቢ ነው ትርሶ?
እኛ አለፋ ነው ያደ ጎንደር ማለት ጎንደር።
ምናልባት አክሲዮን የመግዛት ፍላጎት ካሉት ከሰባ አምስት ሺህ ብር ጀምሮ ድርጅቱ አክሲዮን እየሸጠ ነው እና መግዛት ይችላሉ።
ይህን ሴር ላርገዋል
ይችላሉ።
እናመሰግናል። እና ትምህርት ስለሌለ ሌላ ፈልጌ ነው ይህን ይዞ በሬዲዮ ስለያዝኩት ብዬ ነው። አንዳንድ የራዲዮን በኤፍሬም በስልክ ስለማዳምጥ ለዛ ብዬ ነው። ይቅርታ ጋር
ይቅርታ።